ॐ सर्वे भवन्तु सुखिनः. क्षम्यतां महोदय. ॐ
समीचीनमेव.
समीचीनम्. अहं चिन्तयामि, सह न भवतु.
अस्तु, सहना भवति वदतु.
अस्तु. ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. गुरुभ्यो नमः.
धन्यवादः महोदय. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. इदानीम् अद्यतनविषयः अस्ति तत्र गृन्लकारः. एषः विषयः यः अस्ति तत् तम् अहं वयं तत्र गीतासोपने पठितवन्तः, किन्तु तत्र किञ्चित् क्लेशः आसीत् इति कृत्वा इदानीं तत्र जनार्दन हेगडे महोदयस्य करपत्रं स्वीकृतम्. एतत् सम्भाषणसोपानम् इति पुस्तकमस्ति जनार्दन हेगडे महोदयस्य, तस्मात् स्वीकृतमस्ति. अत्र पश्यामः तत्र, तर्हि तत्र आरम्भतः पठामः एकवारं. तदनन्तरं तत्र लृङ्लकारस्य रूपम् अपि, अर्थः अपि, तस्य प्रयोगः सर्वं पश्यामः अद्य. अस्तु, तर्हि तत्र सुजाता भगिनी भवती एव आरम्भं करोति वा?
आं महोदय.
भगिनी नमस्कारः. उषा भगिनी नमस्कारः. भगिनी
नमस्कारः महोदय.
ऋङ्लकारः पिता वदति वत्स.
भगिनी एकनिमिषः, अत्र एतत् कुर्मः, तत्र भवती पिता भवतु, तत्र प्रिया भगिनी भवती पुत्रः भवति वा?
अवश्यं महोदय.
पिता वत्स, यजनं न चलति, भवान् तत् किं न समीकारितवान्?
यदि भवान् कारयतु इति अवदिश्यत् तर्हि अहम् अकारयिष्यम्.
शालागमने पठामि महोदय. शालागमनसमये यदि विद्युत्कारः सूचितः स्यात् तर्हि एतावता व्यजनं सम्यक् अभविष्यत्. भवान् कारयेत् इति मया चिन्तितम्. अन्यथा अहम् एव गमनसमये आपणिकम् असूचयिष्यम्.
भवान् यदि उक्तवान् स्यात् तर्हि अहम् अवश्यम् अकारयिष्यम्.
अस्तु, तावत् अहो रजकाय दातव्यानि वस्त्राणि अत्रैव सन्ति. यदि प्रातः एतानि रजकाय दत्तानि स्युः तर्हि श्वः प्रातःकाले सः प्रत्यर्पितवान् स्यात्.
भवान् यदि माम् अवदिश्यत् तर्हि अहम् अदास्यम्. यदि भवान् मातरं वदेत् तर्हि सा वा दद्यात्? उभयमपि न कृतं भवता.
यदि भवतः माता स्वच्छीकरणार्थम् अत्र आगतवती स्यात् तर्हि एतानि अवश्यं दृष्टवती स्यात्, रजकाय दत्तवती स्यात् अपि. किन्तु सा अद्य अत्र न आगतवती इति भाति.
कर्मकरी स्वच्छतां कृतवती स्यात्, अतः मात्रा न दृष्टम्.
धन्यवादः. अतः तत्र नूतनरूपं लृङ्लकारः इति. लृङ्लकारस्य उपयोगः कदा भविष्यति इति तत्र इदानीमेव, तत्र अग्रे तत्र अर्थः इति अस्ति, तं पठित्वा वयं ज्ञास्यामः. तर्हि तत्र वेदा भगिनी अग्रे पठति वा तत्र?
धन्यवादः महोदय.
धन्यवादः भगिनी.
अग्रे विशेषः
लृङ्गर्थः. सत्यं भगिनि.
विशेषः लृङ्गर्थः यत्र क्रियाद्वयस्य कार्यकारणभावः भवति, यत्र क्रिया सञ्जाता न भवति च तत्र लृङ्लकारस्य प्रयोगः.
हा इदानीम् एकवारं वदतु भगिनी, तत्र अर्थः कः?
यत्र क्रियाद्वयस्य कारण क्रियाद्वयमस्ति तस्य तस्य मध्ये कार्यकारणभावः भवति, अपि च यत्र क्रिया सञ्जाता न भवति, क्रिया सञ्जाता न भवति च तत्र लिङ्ग् यत्र क्रिया सञ्जाता न भवति इत्युक्ते किं महोदय? तत्र
यत्र क्रिया न अभवत्, न अभवत्,
ओ ओ यत्र क्रिया न सञ्जाता, ओके, क्रिया न अभवत्,
न अभवत्, तत्र क्रियाद्वयमपि न अभवत्. प्रथमक्रिया अस्ति कारणं, द्वितीया क्रिया अस्ति कार्यं, क्रियाद्वयमपि न अभवत्, कारणमपि न अभवत्, कार्यमपि न अभवत्. किन्तु तयोः मध्ये कारणकार्यभावः अस्ति इति प्रदर्शयामः वयं तावदेव, किन्तु क्रियाद्वयमपि न अभवत्. इदानीम् उदाहरणं पठतु.
उदाहरणं, भवान् यदि अवदिश्यत् तर्हि अहम् अकरिष्यम्.
अत्र क्रियाद्वयमस्ति, किम् अस्ति?
अवदिश्यत् अकरिष्यम्.
हा तत्र वदनक्रिया अपि तत्र किमपि करोति,
कर्तुं.
हा इदानीम् अस्य अतः तत्र क्रियाद्वयमस्ति,
कथनस्य च कार्यकारणभावः अस्ति.
हा द्वयोः द्वयोः मध्ये कारणकार्य यतोहि तद् वयं कथं जानीमः तत्र कार्यकारणभावः अस्ति इति?
यदि
समीचीनं, तत्र यदि तर्हि इति रूपमस्ति, अतः वयं जानीमः तत्र यदि इति कारणं, तर्हि इति कार्यं, खलु? कास् एण्ड् एफेक्ट् इति अस्ति. हा अतः तत्र कार्यकारणभावः तयोः मध्ये अस्ति.
भवान् न उक्तवान्, अहं न कृतवान् इति उभयत्र अपि क्रियायाः असमाप्तिः दृश्यते. असमाप्ति इत्युक्ते क्रिया
न कृतम् इति, न कृतम् इति,
न कृतम् इति.
क्रियायाः समाप्तिः नाम क्रिया अभवत् इति अर्थः, खलु? किमपि कार्यमस्ति, तत्र कार्यं यदि वयं कुर्मः तदा एव वयं वदामः अस्तु कार्यं समाप्तम् इति वदामः, खलु?
आम् आम् आम्.
किन्तु यदा कार्यं न तस्य समाप्तिः न अभवत् तत्र कार्यं कृतम् इति न वक्तुं शक्नुमः. अतः तत्र कार्यक्रियायाः असमाप्तिः दृश्यते, नाम तद् एतावत् न अभवत् इति. अतः
तदेव रूपं भवति.
हा अतः तत्र किं भवति, भवान् यदि अवदिश्यत्, अत्र अर्थः किं? भवान् न उक्तवान्, भवान् न उक्तवान्, किन्तु
यदि भवान् यदि अवदिश्यत्, यदि भवान् न उक्तवान्,
न न न अर्थः सः नास्ति, अर्थः अस्ति यदि
भवान् अवदिश्यत्
उक्तवान् स्यात्, यदि भवान् उक्तवान् स्यात् तर्हि अहं
कृतवान्
स्यात्, कृतवती स्यात्. किन्तु साक्षात् वस्तुस्थितिः का इत्युक्ते भवान् न उक्तवान्, अहं न कृतवान् इति वक्तुम् इच्छामः. तत्र भवान् न उक्तवान् अतः अहं न कृतवान्, किन्तु यदि भवान् उक्तवान् स्यात् तर्हि अहं कृतवान् स्यात् इति अर्थः. सर्वे इदानीं तत्र अवगमनम् अस्ति खलु सर्वेषां कृते तत्र? अस्तु, इदानीं तत्र एतदेव वक्तुम् इच्छामः, तत्र यदि भवान् उक्तवान् स्यात् तर्हि अहं कृतवान् स्यात् इति तद् वक्तुम् इच्छामः. किन्तु भवान् न उक्तवान्, अहमपि न कृतवान्, सा एव वस्तुस्थितिः. एतत् तत्र स्थित्याः वदनशैली कथम् अस्ति इत्युक्ते तत्र लृङ्लकारस्य उपयोगेन कुर्मः. अतः तत्र अवदिश्यत्, यत्र अवदिश्यत् इति पश्यामः, तत्र नकारः नास्ति चेत् तत् क्रिया न अभवत्. यत्र तत्र यदि अवदिश्यत् इति अस्ति, अतः सः न उक्तवान्, अहम् अकरिष्यम् इति अस्ति, अतः अहं न कृतवान् इति मनसि भवेत्. अस्तु, अतः तत्र लृङ्लकारस्य गीतासोपाने वयम् एकमेव रूपं दृष्टवन्तः, अतः प्रायशः क्लेशः आसीत्. इदानीम् अग्रे तत्र सारल्यार्थम् इदानीं तत्र रूपत्रयं वर्तते, हा अतः तत्र अवगमनं सुलभतया भवति इति कृत्वा इदानीम् अग्रे पश्यामः तर्हि अस्तु तर्हि तत्र शुभदा भगिनी अग्रे तत्र ऋङ् अर्थः त्रिविधा वक्तुं शक्यते इति तत्र अग्रिमपुटे पठति वा भगिनि अस्तु नो चेत् तत्र अस्तु शोभा भगिनी पठितुम् इच्छति वा अग्रे
आं महोदय पठामि ऋङ्गर्थः त्रिधा वक्तुं शक्यते भवान् न उक्तवान् अहं न कृतवान्
इति सारांशः तद्
सारांशः त्रिधा कथं भवति इति दत्तं तत्र एतस्य कृते त्रीणि वाक्यानि भवितुम् अर्हन्ति यदि भवान् अवदिश्यत् तर्हि अहम् अकरिष्यम् अथवा आम् तत्र लृङ्गलकारस्य प्रयोगः हा यदि भवान् वदेत् तर्हि अहं कुर्याम् तत्र द्वितीयं रूपम् अपि च यदि भवान् उक्तवान् स्यात् तर्हि अहं कृतवान् स्यात् इति तवतु प्रत्ययस्य प्रयोगः तत्र तत्र तृतीय प्रयोगस्य उदाहरणम्
हा समीचीनं भगिनि तदेव अस्ति तदेव अस्ति हा समीचीनं तत्र अतः तत्र किमपि वाक्यं तत्र यदि बालः पठितवान् स्यात् तर्हि उत्तीर्णं प्राप्तवान् स्यात् इति स्वीकुर्मः अतः तत्र तस्य अन्या रीतिः कथं भवति इति वदति वा
यदि भवान्
पठितवान् स्यात्
प्रथमं तदेव करणीयं वा महोदय यदि भवान् पठितवान् स्यात् तर्हि
यदि बालः सम्यक् पठितवान् स्यात् तर्हि सः
उत्तीर्णः
भूतवान्
स्यात्
इदानीं तत्र इदानीं तवतु अस्ति तत्र तवतु अस्ति अतः तत्र तवतु मास्तु इति चिन्तयामः केवलं तत्र मध्ये किमस्ति मध्ये केवलं विधिलिङ्गकारः अस्ति अतः तत्र रूपं किं भवति
यदि
बालः
पठेत्
सम्यक् पठेत्
यदि बालः सम्यक् पठेत्
तर्हि सः
उत्तीर्णः परीक्षायाम् उत्तीर्णता कुर्यात्
उत्तीर्णः अस्तु उत्तीर्णः भवेत् अथवा स्यात् समीचीनम् उत्तीर्णः स्यात् अथवा भवेत् समीचीनं उत्तीर्णः स्यात् अथवा भवेत् इदानीं भवेत् एव स्वीकुर्मः यतोहि तत्र अग्रे तत्र यदि तत्र लृङ्लकारः कुर्मः तत्र भवेत् इति सः उत्तीर्णः परीक्षायाम् उत्तीर्णः भवेत् इदानीं साक्षात् लृङ्लकारः
तत्र यदि बालः सम्यक् अपठिष्यत् तर्हि सः परीक्षायाम् उत्तीर्णः अभविष्यत्
अभविष्यत् इति तावदेव समीचीनं तावदेव अस्ति समीचीनं भगिनि धन्यवादः अस्तु इदानीम् अग्रे तत्र नरेश् महोदय इदानीं तत्र अग्रे तत्र त्रैविध्यस्य विषये किञ्चित् उक्तमस्ति तत् पठति वा महोदय
अत्र प्रथमे प्रकारे भविष्यत्कालरूपं ज्ञातव्यम् अडागमव्यवस्था ज्ञातव्या च उदाहरणम् अस्ति गच्छति गमिष्यति अगमिष्यत् पश्यति द्रक्ष्यति अद्रक्ष्यत् द्वितीयप्रकारे विधिर्लिङ्गरूपं ज्ञातव्यम् तृतीयप्रकारे तवतु प्रत्ययान्तरूपेण सह स्यात् इत्यादयः योजनीयाः एषः तृतीयः प्रकारः सरलतमः अतः एतस्य एव प्रयोगः आनुकूल्याय तथापि अभ्यासदृष्ट्या काः अपि अभ्यासाः अत्र सूचिताः
इदं किञ्चित् वदतु महोदय तत्र त्रैविध्यम् इति अस्ति तयोः मध्ये तत्र अथवा तेषां मध्ये कः भेदः इति
प्रथमा तु भविष्यत्कालरूपं ज्ञातव्यम् अपि च अडागमव्यवस्था अपि अस्ति
यतोहि लङ्लकारस्य रूपे अडागमः भवति खलु
भवति
अकारः आदौ आगच्छति इति
गच्छति क्रियापदमस्ति चेत् भविष्यत्कालं गमिष्यति अस्ति अपि च भूतकालम् अस्ति अगच्छत् अस्ति मेलने अगमिष्यत्
भवति अतः तत्र लकारद्वयस्य ज्ञानम् आवश्यकम् अस्ति
आवश्यकमस्ति
प्रथमविध वाक्यस्य निरूपणे इदानीं द्वितीयप्रकारे किं भवति
द्वितीयप्रकारे विधिलिङ्गरूपं ज्ञातव्यं
हा नाम तत्र वदति इति स्थाने वदेत् कुर्यात् इति स्थाने कुर्याम् इति ज्ञातव्यम् अस्तु समीचीनं हा इदानीं तृतीयप्रकारे
तव तु रूपं स्यात् योजनीयाः
हा तत्र यथा तत्र उक्तवान् स्यात् कृतवान् स्यात् उक्तवती स्यात् कृतवती स्यात् इति
तव तु रूपं
तदनन्तरं केवलं तत्र स्यात् इति तु विधिलिङ्गकारः एव अस्ति किन्तु अस् धातोः विधिलिङ्गकारः केवलम् एकस्य एव विधिलिङ्गकारस्य आवश्यकता अत्र अस्ति अपि तव तु वयं तत्र अभ्यासपुस्तके अपि दृष्टवन्तः गीतासोपने अपि तत्र तस्य पठनं कृतवन्तः अतः तत्र तव तु सरलमेव अस्ति परिचितं रूपम् अस्ति खलु तव तु रूपम्
अपि च अन्यत् तु स्यात् अस्ति
हा स्यात् इति एव अस्ति अतः तत्र विधिलिङ्गकारः किमपि क्लिष्टधातोः धातुः अस्ति तस्य विधिलिङ्गकारस्य निर्माणम् इति किमपि आवश्यकता नास्ति केवलं तत्र अस् धातोः तत्र अस् धातोः तत्र समीचीनमस्ति महोदय तत्र तृतीय तत्र प्रकारः ते तत्र जनार्दन हेगडे महोदय वदति तृतीयप्रकारः सः तु सरलतमः नाम त्रयं रूपत्रयम् अस्ति किन्तु तेषां मध्ये तत्र तेषु तृतीयप्रकारः एव अत्यन्तसरलः अस्ति अतः तत्र
त्रीणि वाक्यानि अर्थं समानमेव किल
अर्थः समानः महोदय अर्थः समानः अर्थः यः तत्र दत्तं निर्दिष्टमस्ति खलु भवान् न उक्तवान् अतः अहं न कृतवान् इति वक्तुम् इच्छामः वदतु महोदय
परन्तु प्रथमतः यदि भवान् अवदिश्यत् तर्हि अहम् अकरिष्यम्
तत्र किं सूचितम् इत्युक्ते भवान् न उक्तवान् किन्तु यदि भवान् उक्तवान् स्यात् इफ् यु हेड् सेड् ऐ वुड् हेव् डन् इति ऐ वुड् हेव् डन् किन्तु तत्र किं यु डिड् नाट् से अण्ड् ऐ डिड् नाट् डु इति एव साक्षात् स्थितिः अतः
भूतकालरूपं
तत्र भूतकालमपि अस्ति भविष्यत्कालमपि अस्ति यतोहि क्रियाद्वयमस्ति एकस्य अनन्तरं क्रिया अस्ति अतः तत्र कालद्वयमस्ति कारणस्य भूतकालः तस्य कास् इति तत्र भूतकालः तस्य अनन्तरम् एफेक्ट् भवति इति कृत्वा कार्यं भवति इति कृत्वा भविष्यत्कालरूपमपि तयोः मेलनम् अस्ति अत्र
परन्तु वाक्ये अर्थं कुत्र भविष्यति?
अर्थः एषः एव अर्थः महोदय. तस्य वाक्यस्य अर्थः भवान् न उक्तवान्, अहं न कृतवान्, किन्तु यदि भवान् उक्तवान् स्यात्, इफ् यु हेड् टोल्ड् देन् ऐ वुड् हेव् डन् इति प्रथमवाक्यं भागः. द्वितीयभागः बट् यु डिड् नाट् से अण्ड् ऐ डिड् नाट् डू, द्वयमपि तत्र अन्तर्भूतः अस्ति.
अस्तु अस्तु, किञ्चित् किञ्चित् क्लेशः.
अतः अतः तत्र रूपं तत्र रूपभेदः अस्ति, किन्तु तृतीयरूपं सुलभमस्ति, समानार्थकवाक्यानि सन्ति इति कृत्वा तत्र यदि भवान् उक्तवान् स्यात् तर्हि अहं कृतवान् स्याम् इति तत् पश्यतु. तत्र किमस्ति, भवान् यदि भवान् उक्तवान् स्यात् किन्तु भवान् न उक्तवान्, यदि भवान् उक्तवान् स्यात् अहं कार्यं कृतवान् स्याम्, किन्तु भवान् न उक्तवान्, अहमपि न कार्यं न कृतवान् स्याम्, खलु? हा, इति इति वक्तुम् इच्छामः. एषः एव अर्थः लृङ्लकारस्य. अस्तु सर्, इदानीं तत्र अभ्यासं कुर्मः, तेन तत्र एतत् सर्वं परिचितः भवति अर्थः. तदनन्तरं वयमपि तत्र तादृशप्रयोगस्य प्रयोगे निपुणाः भवेम. अस्तु, अग्रे तत्र वंशीसुधा भगिनी अग्रे पठति वा भगिनि? अस्तु, नमस्कार भगिनि. अस्तु, उषा भगिनी अद्य पठितुं शक्नोति वा?
आं महोदय.
अस्तु अस्तु अस्तु, हा अस्तु, तर्हि तत्र अभ्यासः.
अभ्यासः अधो निर्दिष्टानां वाक्यानां तात्पर्यम् अवगत्य योग्यम् उत्तरं चिह्नेन अङ्क्यत. उदाहरणरूपं, यदि भवान् अवदिष्यत् तर्हि अहम् अकलिष्यम्. यदि भवान्
अत्र वस्तुस्थितिः का इति चिह्नरूपेण दर्शयामः, खलु?
आं महोदय.
अतः तत्र वस्तुस्थितिः का?
तत्र यदि भवान् अवदिष्यत् तर्हि अहम् अकरिष्यम् इत्युक्ते भवान् न उक्तवान्, अहं न कृतवान् इति.
अतः तत्र न उक्तवान् इति तत्र तदेव
सम्यक् अस्ति.
सम्यक् अस्ति, अहं न कृतवान् इति अपि सम्यक् अस्ति.
सम्यक् अस्ति,
समीचीनं भगिनि. अस्तु, इदानीम् अग्रे.
यदि भवान् तम् असूचयिष्यत् तर्हि सः कार्यम् अकरिष्यत्. यदि भवान् तम् असूचयिष्यत् तर्हि सः सः कार्यम् अकरिष्यत् इत्युक्ते भवान् न सूचितवान्.
हा, समीचीनम्. अग्रे सः
अग्रे अग्रे किमस्ति महोदय?
सः कार्यं कृतवान् अथवा न कृतवान्?
एकं निमिषं. सः कार्यं कृतवान् परन्तु न कृतवान् अत्र.
हा, अतः न कृतवान् इति तत्रैव चिह्नः भवति. समीचीनम्. हा, अस्तु अस्तु, अग्रे तत्र प्रिया भगिनी अग्रिमं करोति वा?
आम् महोदय. यदि भवती वस्त्रम् अदास्यत् तर्हि सः अक्षालयिष्यत्. अतः भवती वस्त्रं न दत्तवती, ततः सः वस्त्रं न क्षालितवान् इति.
हा, इति समीचीनं भगिनि. हा, तत्र लृङ्लकारस्य प्रयोगः यत्र भवति तत्र कार्यं न अभवत्, कारणमपि न भवत्, कार्यमपि न भवत्. समीचीनं भगिनि. अस्तु, अग्रे तत्र मधु महोदय अग्रिमं करोति वा?
महोदय, यदि सा अत्र आगमिष्यत् यदि सा अत्र आगमिष्यत् तर्हि वस्त्राणि अद्रक्ष्यत्.
तत्र आगमिष्यत् इति क्रियापदस्य लट् लकाररूपं किम् अस्ति?
आगच्छति.
आगच्छति, समीचीनम्. तत्र गच्छति इति तस्य लृङ्लकाररूपं भवति अगमिष्यत्, किन्तु आगमिष्यत् इति अस्ति. समीचीनं महोदय.
सा अत्र न आगतवती.
हा सा अत्र न आगतवती, समीचीनं न
आगतवती. सा वस्त्रं न दृष्टवती.
हा सा वस्त्राणि अथवा वस्त्रं न दृष्टवती, न दृष्टवती. सा एव वस्तुस्थितिः, वस्तुस्थितिः सा न आगतवती, सापि न दृष्टवती. हा समीचीनं. हा अस्तु अग्रे तत्र इदानीं तत्र अस्तु वेदा भगिनी, इदानीं तत्र अग्रिमम् इदानीं नकारः अस्ति अतः सावधानम्.
यदि भवन्तः न अस्मारयिष्यन् तर्हि अहं न अगमिष्यम्. यदि भवन्तः न अस्मारयिष्यन् तर्हि अहं न अगमिष्यम्. यदि भवन्तः स्मारितवन्तः तर्हि अहं गतवान् इति वा
तत्र पूर्वं
यदि भवन्तः न
भगिनि एतावत् श्रुतवती खलु, अतः पूर्वस्मिन् वाक्यं एकवारं पठतु.
यदि सा अत्र आगमिष्यति तर्हि वस्त्राणि अद्रक्ष्यत्. यदि सा अत्र न आगतवती वस्त्राणि न दृष्टवती
इति वस्तुस्थितिः खलु. इदानीं तत्र वाक्ये कः लकारः अस्ति, कः लकारस्य प्रयोगः अस्ति अस्मिन् वाक्ये?
अस्मारयिष्यन्
अस्मारयिष्यन् मास्तु, पूर्वस्मिन् वाक्ये तत्र सा अत्र आगमिष्यत् तर्हि वस्त्राणि अद्रक्ष्यत्, तत्र लकारः कः?
तत्र तु लृङ्लकार एव न,
लृङ्लकारः एव खलु. अस्तु तत्र आगमिष्यत् इति अस्ति, तत्र आगमिष्यत् इति अस्ति, तस्मात् प्राक् नकारः अस्ति वा?
नास्ति.
अतः भवती किं ज्ञातवती? आगमिष्यत् इति अस्ति किन्तु सा न आगतवती इति चिन्तितवती खलु. इदानीं तस्मिन् स्थाने यदि सा अत्र न आगमिष्यत् इति आसीत् चेत् भवती किं चिन्तयति इदानीं?
न आगमिष्यत् इत्युक्ते यदि आगच्छति तर्हि
न तत्र यदि सा अत्र आगमिष्यत् इति अस्ति चेत् भवती उक्तवती सा वस्तुस्थितिः का? सा अत्र न आगतवती खलु. किन्तु इदानीं चिन्तयतु, एतत् वाक्यं लृङ्लकारं मास्तु किन्तु सा आगतवती इति चिन्तयतु. इदानीं तद् भवती कथं वदति लृङ्लकारस्य उपयोगेन?
यदि भवती यदि सा अत्र आगतवती तर्हि
तत् स्वीकरोतु. न किन्तु सा आगतवती इति वक्तुम् इच्छति.
सा आगतवती तो तत्र
इदानीं यदि न वस्तुस्थितिः सा आगतवती, इदानीं तत् कथं वदति? इदानीं तत्र
न आगमिष्यत्
हा खलु. अतः तत्र न आगमिष्यत् अस्ति चेत् सा आगतवती इति अर्थः भवति खलु. इदानीं भवत्याः वाक्यं पठतु. इदानीं यदि
स्मारयिष्यन् तस्य रूपं भवति स्मारितवन्तः.
हा ते स्मारितवन्तः खलु. हा समीचीनम् इति एव अस्ति.
इदानीं समीचीनं वा? अहं गतवान्, अहं गतवान्.
हा समीचीनं वा? इदानीम् अवगच्छति खलु. हा अतः तत्र नकारः नकारेण किं परिवर्तनं भवति इति सम्यक् इदानीं जानाति. समीचीनं भगिनि. हा अतः तत्र वस्तुस्थितिः का? भवन्तः स्मारितवन्तः, अहमपि गतवान् इति इदानीं भवति. अतः नकारद्वयमस्ति अतः एतत् भवति. अस्तु इदानीं क्लिष्टम् अग्रे भवति तत्र. अस्तु शुभदा भगिनी अग्रिमं कर्तुम् इच्छति वा?
आं महोदय, श्रूयते वा?
हा श्रूयते भगिनि. हा
पूर्वमपि एतदेव वाक्यम् अहं कृतवती
इति वा भगिनि? अस्तु अस्तु अत्र भवती अस्तु तर्हि एतत् करोतु, तर्हि भवती अग्रिमवाक्यं करोतु.
न महोदय, अहं करोमि.
अस्तु भगिनि,
किं कृतवती इति.
अस्तु भगिनि.
यदि सः उत्तरम् अज्ञास्यत् तर्हि मौनेन न अस्थास्यत्. अत्र अत्र द्वयोः क्रियायोः
भागं भागं स्वीकृत्य वदतु भगिनि तत्र वस्तु का इति.
अत्र द्वयोः क्रिययोः मध्ये नकारः न श्रूयते, अपि च तत्र नकारः नास्ति इति अपि नास्ति, परन्तु तत्र यदि सः
उत्तरं
न न अहं किं वक्तुम् इच्छामि चेत् तत्र नकार प्रथमे भागे नकारः नास्ति, द्वितीये भागे नकारः अस्ति, अथवा
तत्र सर्वत्र नकारः इति नास्ति.
यदि सः उत्तरम् अज्ञास्यत् तर्हि मौनेन न अस्थास्यत्. यदि सः उत्तरं न ज्ञातवान् तर्हि मौनेन स्थितवान्.
अस्तु अस्तु, तत्र यदि सः उत्तरम् अज्ञास्यत् इति तद्भागं स्वीकृत्य तत्र वस्तुस्थितिः का इति वदतु. सः ज्ञातवान् अथवा सः न ज्ञातवान्?
यदि सः उत्तरम् अज्ञास्यत् इत्युक्ते सः उत्तरं न ज्ञातवान्.
हा, सः उत्तरं न
ज्ञातवान् अतः सः मौनेन स्थितवान्.
हा इति खलु,
समीचीनं वा?
समीचीनं भगिनि, तदेव अस्ति, तदेव अस्ति.
एतदेव वाक्यमासीत् पूर्वम्
तत्र. किन्तु अभ्यासः सम्यक्तया कृतः अस्ति खलु भगिनि, तत्र प्रथमतया केवलं नकारं कुत्रापि नास्ति, तदनन्तरं नकारं द्वयोः स्थाने अपि अस्ति, इदानीम् एकस्मिन्नेव स्थाने नकारः अस्ति, अतः वयम् अस्तु ओ सावधानेन इदानीं परिशीलयामः. अस्तु, इदानीम् अवगमनं भवति. समीचीनं भगिनि, उत्तमम्. अस्तु अग्रे शोभा भगिनी अग्रिमम्.
आं महोदय, यदि दर्पणः भूमौ अपतिष्यत् तर्हि भग्नः अभविष्यत् इत्युक्ते तत्र दर्पणः भूमौ न पतितः अपि च भग्नः न जातः.
समीचीनं भगिनि, हा तावदेव अस्ति. अस्तु, अतः तत्र इदानीं लृङ्लकारस्य वाक्यं यदि परिशीलयामः एतेन अभ्यासेन तत्र किं भवति परिणामः कः इत्युक्ते, तत्र लृङ्लकारस्य वाक्यम् अस्ति चेत् तस्य अर्थः कः इति ज्ञातुं शक्नुमः इदानीम्. अग्रिम अभ्यासे तत्र किं कुर्मः, तत्र तवतु अपि तत्र तवतु अपि विधिलिङ्लकारस्य तादृशरूपम् अस्ति चेत् तस्मात् तत्र लृङ्लकारस्य वाक्यं कथं तस्य निर्माणं कथं भवति इति अग्रिम अभ्यासस्य तत्र आशा. अस्तु तर्हि अग्रे तत्र वंशीसुधा भगिनी पठितुम् इच्छति वा, शक्नोति वा? अस्तु तर्हि तत्र अस्तु अग्रे तत्र सुजाता भगिनी अग्रिमम् अभ्यासम् आरम्भं करोति वा भगिनि?
आं महोदय, ऋङ्लकाररूपयुक्तानां वाक्यानां निर्माणं कुरुत. उदाहरणमस्ति भवान् न आगतवान्, अहं न दत्तवान्. यदि भवान् आगमिष्यत् तर्हि अहम् अदास्यम्.
तत्र भवान् न आगतवान् इति एव वस्तुस्थितिः अत्र, अतः नकारः यत्र अस्ति तद् न अभवत् इति वक्तुम् इच्छामः. तत्र लृङ्लकारे नकारः न दृश्यते खलु. तत्र यदि भवान् आगमिष्यत् इति एव अस्ति, यतोहि भवान् न आगतवान् खलु,
तर्हि अहम् अदास्यम्.
अहम् अदास्यम् इति तत्र नकारः नास्ति, नाम अहं न दत्तवान् अथवा अहं न दत्तवती. अतः तत्र अहं न दत्तवान् इति कदा तत्र कथं वदामः, अहम् अदास्यम् इति वदामः. समीचीनं, अस्तु इदानीं प्रथमवाक्यं
तम् अहं न दृष्टवान्, अहं विषयं न सूचितवान्. तम् अहं द्रक्ष्य
सत्यं भगिनि, पूर्वम् आसीत् तत्र अद्रक्ष्य अहम् अद्रक्ष्यम्
अहम् अद्रक्ष्यं भवति
अद्रक्ष्यं सत्यम्
अद्रक्ष्यम् अहं विषयं
अहं तम् अद्रक्ष यदि अहं तम् अद्रक्ष्यम्
विषयम्
असूचयिष्यम्
असूचनीयम्
न न
असूचयिष्यम्
तत्र
विषयं
सूचयिष्यति इति भवति खलु अतः असूचयिष्यम् पूर्णवाक्यं वदतु पुनः एकवारं यदि
अहं तम् अद्रक्ष्यं विषयम्
तर्हि भवेत्
तर्हि विषयम्
असूचयिष्यं समीचीनम्
असूचयिष्यं
यदि अहं तम् अद्रक्ष्यं तर्हि विषयम्
असूचयिष्यम्
इति समीचीनं भगिनि हा उत्तमम् हा धन्यवादः भगिनि अस्तु अग्रे उषा भगिनी अग्रे
आं महोदय सः वेगेन न गतवान् अपघातः न जातः इत्युक्ते वस्तुस्थितिः अस्ति सः वेगेन न गतवान् अपघातः न जातः अपि च सः वेगेन अगमिष्यत्
यदि सः
वेगेन अगमिष्यत् तर्हि अपघातः अभविष्यत्
इति समीचीनं हा तावदेव अस्ति
इत्युक्ते सर्वं कल्पना एव अस्ति न महोदय
सत्यं भगिनि अतः एव अतः कल्पना किम् अस्ति इति प्रथमतया वदामश्चेत् सुलभं भवति खलु इदानीं हा नो चेत् तत्र कल्पना किं किन्तु ते वदन्ति तद् अभवत् इति तत्र क्लेशः अस्ति किन्तु इदानीं समीचीनमस्ति खलु भगिनि
अपि च न अस्ति चेत् तर्हि तत्र पासिटिव् अस्ति
हा सत्यं सत्यं हा यत्र न स्यात् इति वदामः तत्र लृङ्लकारे नकारः न दृश्यते सत्यं हा समीचीनम् अस्तु अग्रे तत्र मधुमहोदय अग्रे
महोदय चत्वारः किल
तृतीयं महोदय अपघातः नाम एक्सिडेण्ट्
अपघातः न जातः दन्ताः न पतिताः यदि दन्त
न यदि अपघातः प्रथमं तत्र
यदि अपघातः न
नकारः नास्ति खलु नकारः नास्ति एषा स्थितिः यद् वदन्ति तदेव वस्तुस्थितिः खलु
आमामां यदि अपघातः जातः
न इदानीं लृङ्लकारस्य उपयोगः तत्र जातः इति स्थाने भवति इति चिन्तयतु अभवत् इति चिन्तयतु तत्र किं भवति अभविष्यत् इति
यदि अपघातः अभविष्यत् तर्हि
अपतिष्यन् इदानीं बहुवचनं अपतिष्यन्
यदि अपघातः
अभविष्यत् तर्हि दन्ताः अपतिष्यन् हा इति तत्र एतेन वाक्येन वयं किं सूचयामः तत्र अपघातः यदि अभवत् तत्र यदि तत्र अभवत् तत्र वयं केवलं चिन्तनं तत्र ओ अपघातः भवितुम् अर्हति किन्तु यदि तादृशम् अभवत् परिणामः कः इति चिन्तयामः तावदेव अपघातः न अभवत् अतः तत्र यदि तद् अभवत् तेन परिणामः तस्य परिणामः कः इति चिन्तनम् अस्ति तावदेव किन्तु अपघातः न अभवत् अतः तत् पुनः एकवारं वदतु भवतः वाक्यं यदि
अपघातः न भविष्यत्
यदि अपघातः अभविष्यत्
तर्हि दन्ताः न अपश्यन्
नकारः नास्ति खलु इदानीं
नास्ति क्षम्यतां तर्हि दन्ताः अपश्यन्
अपतिष्यन् अपतिष्यन् हा इति समीचीनम् अस्तु अग्रे नरेश महोदय
दन्ताः न पतिताः वैद्यः न दृष्टः वस्तुतः स्थिति अस्ति दन्तः न पतिताः तदा वैद्यः न दृष्टवान् अत यदि दन्ताः अपतिष्यन् तर्हि वैद्यः
वैद्यं वैद्यम् इति चिन्तयतु वैद्यं
वैद्यम् अद्रक्ष्य
अद्रक्ष्यत् अध्यक्षः इति यतोहि सर्वमित्र अत्र किम् अस्ति तत्र सः वेगेन न गतवान् इति अस्ति खलु ततः आरभ्य एतानि सर्वाणि वाक्यानि तत्र सम्बन्धः अस्ति खलु सः वेगेन न गतवान् अपघातः न जातः दन्ताः न पतिताः वैद्यः न दृष्टः इति सर्वं खलु अतः तत्र सः इति एव तत्र यः वेगेन न गतवान् सः यदि वेगेन गतवान् स्यात् किं भवति इदानीं सः वैद्यं दृष्टवान् किन्तु सः वैद्यं न दृष्टवान् अतः
यदि दन्ताः अपतिष्यन् तर्हि सः वैद्यम् अद्रक्ष्यत्
समीचीनं महोदय तावदेव अस्ति हा अद्रक्ष्यत् इति अस्ति अस्तु अग्रे प्रिया भगिनी
महोदय अत्र एकः प्रश्नः अत्र वैद्यः न दृष्टः इति कर्मणि प्रयोगे न भवति वा
कर्मणि प्रयोगे एव अस्ति भगिनी किन्तु तत्र वैद्यं न दृष्टवान् इति कर्तृरूपं स्वीकुर्मः तत्र तावदेव यतोहि तत्र तेन इति तत्र तादृशरूपम् एतावत् अभ्यासे न दत्तं खलु केवलं तव तु रूपमेव तत्र उदाहरणे अस्ति अतः तत्र वयं वैद्यः तेन न दृष्टः अस्तु वैद्यः तेन न दृष्टः नाम सः वैद्यं न दृष्टवान् तत् स्थापयामः तावदेव
अस्तु
सत्यं कर्मणि रूपमेव दत्तमस्ति सत्यं
धन्यवादः
भगिनि अस्तु अग्रे प्रिया भगिनि
अहं न पठितवान् अहं प्रथमश्रेणीं न प्राप्तवान् वस्तुतः स्थितिः तदेव तर्हि लिङ्लकारे यदि अहम् अपठिष्यं तर्हि अहं प्रथमश्रेणीं
वदतु भगिनि अप्राप्स्यम् न अप्राप्स्यं न अप्राप्स्यम् इति एव यतोहि तत्र नियमः कः
ओ आम् आम् महोदय
इति उपसर्गः अस्ति खलु
प्राप्स्यम् इति
प्राप्स्यम् इति किञ्चित् क्लेशजनकः अस्ति अतः तत्र आप्नोति इति स्थाने तत्र आप्नोत् इति भवति लङ्लकारः अपि भविष्यत्कालरूपम् आप्स्यति इति भवति खलु
आं महोदय
हा अतः तत्र आप्स्यम् इति मेलनेन इदानीं तत्र प्रा इति
उपसर्गं
पुनः एकवारं भगिनि
यदि अहम् अपठिष्यं तर्हि अहं प्रथमश्रेणीं प्राप्स्यम्
हा समीचीनं भगिनि तवदेव अस्ति हा उत्तमं स्वग्रे शोभा भगिनि
आं महोदय अग्रे अहं स्मृतवान् अहं पत्रं न लिखितवान् वस्तुस्थितिः अहं स्मृतवान् किन्तु पत्रं न लिखितवान् इति तर्हि तत्र अहं
स्मृतवान्
यदि अहं अस्मरिष्यत् भवति वा महोदय
किन्तु तत्र वस्तुस्थितिः का स्मृतवान्
क्षमताम् अहं यदि अहं न अस्मरिष्यत् इति भवति
अस्मरिष्यं
तर्हि अहं पत्रं अलि किं भवति तत्र महोदय लिख् धातुः
लिख् धातुः अलिकि तत्र किं भवति
अलेख्यं भवति वा महोदय, अथवा गुणः भवति वा तत्र?
अलेखिष्यम् इति चिन्तयामि, सत्यं वा?
लेखिष्यम् इति भवति वा?
अलेखिष्यम्,
अस्तु. पुनः वदामि महोदय, यदि अहं न अस्मरिष्यं तर्हि अहं पत्रम् अलेखिष्यम्
इति. समीचीनं, तदेव अस्ति, समीचीनं. अस्तु अग्रे वेदा भगिनि.
अहं न दृष्टवान् सः एवं कृतवान्. अहं न दृष्टवान् यदि अहम् अद्रक्ष्यं तर्हि सः एवम् अकारिष्यत्.
चिन्तयतु, सः कृतवान् अथवा न कृतवान्?
ओ, अहं न दृष्टवान् सः एवं कृतवान् तर्हि सः एवं न अकारिष्यत्.
अकरिष्यत्, अकरिष्यत् खलु,
न अकरिष्यत्.
पुनः पुनः
अद्रक्ष्यं तर्हि सः एवं न अकरिष्यत्. कारिष्यत् अकरिष्यत् महोदय,
तत्र कृतवान् एव अस्ति खलु, कारितवान् इति नास्ति खलु?
ओके, अकरिष्यत्.
अतः तत्र कारितवान् अस्ति चेत् तत्र कारयिष्यत्, अकारयिष्यत् इति किमपि भवति, किन्तु अत्र
अकरिष्यत्.
समीचीनं भगिनि, अस्तु. तत्र वंशीसुधा भगिनी वक्तुमिच्छति वा? अस्तु, भवति तर्हि. तत्र उषा भगिनी पुनः करोति वा?
आं महोदय, सः कुपितः न जातः, सः भवन्तं न निन्दितवान्
इति वस्तुस्थितिः.
सः कुपितः न जातः, अतः यदि सः कुपितः अभविष्यत् तर्हि सः भवन्तम् अनिन्दिष्यत्
इति भवति. समीचीनम्, अस्तु, समीचीनम्. अस्तु अग्रे शुभदा भगिनी अग्रे.
कार्यं न समाप्तं, सः निद्रां न कृतवान्. वस्तुस्थितिः कार्यं समाप्तं न भवति अतः सः निद्रां न करोति इति. तस्य लृङ्लकारे यदि कार्यं समाप्तम् अभविष्यत् सः निद्राम् अकरिष्यत्
इति. समीचीनं भगिनि, उत्तमम्. अस्तु अग्रे तत्र नरेश महोदय अन्तिमं करोति वा?
वृक्षः मम उपरि न पतितः, अहं न मृतः. अत्र वस्तुस्थितिः तु अस्ति, वृक्षः मम उपरि न पतितवान् तदा अहं न मृतवान्. लृङ्लकारे यदि वृक्षः मम उपरि अपतिष्यत् तर्हि अहम् अमृष्यम्.
समीचीनं महोदय, समीचीनम्, उत्तममस्ति. अस्तु अग्रे इदानीम् अग्रे सरामः तर्हि.
क्षम्यतां महोदय, अहं श्रुतवती त्रिवारं भवान् मम नाम उच्चारितवान्. शृण्वन्ती अस्मि, यतोहि मम पुत्र्याः परीक्षा आसीत् अद्य, सा गतवती अधुना एव. अहं
इदानीं वक्तुं शक्नोति वा, पठितुं शक्नोति वा?
आमां, श्रूयते एव महोदय.
श्रूयते भगिनि, अस्तु इदानीम् अतः तत्र अग्रिम अभ्यासम् आरम्भं करोतु भगिनि तर्हि.
त्रयोत्रिंशत् अभ्यासः अस्ति. लिङ्गर्धे विधिर्लिङ्ग् लकाररूपम् उपयुज्य वाक्यानां निर्माणं कुर्वन्तु. उदाहरणमस्ति, भवान् न पृष्टवान् सः न दत्तवान्. यदि भवान् पृच्छेत् तर्हि सः दद्यात्. अस्तु, तत्र तु वस्तुस्थितिः अस्ति, परन्तु तत्र लिङ्ग् लकाररूपं तु तत्र तु
इदानीं मास्तु, लकारं मास्तु, केवलं तत्र एतदेव तत्र
विधिर्लिङ्ग्लकारे कुर्मः. अस्तु महोदय, प्रथमम् उदाहरणमस्ति,
तत्र वयं वैविध्यं दृष्टवन्तः, अतः तत्र वयं केवलम् एकतः अन्यस्य रूपं तावदेव.
सत्यम्, अस्तु महोदय. प्रथममस्ति, सः न दत्तवान्, अहं न आनीतवान्. यदि सः क्षम्यतम् आनीतवान् क्षम्यतां सः न दत्तवान् अहं न आनीतवान् आनीतवान् नीतवान् अस्ति वा
भवत्याः पुस्तके तदस्ति वा भगिनि
तत्र किमस्ति
अहं न नीतवान्
ओ अस्तु दोषः अस्ति पुरातनपुस्तकम् अस्ति अतः अस्तु यदि सः दद्यात् तर्हि यदि न क्षम्यतां तर्हि न
उपयुज्य
यदि सः दद्यात् तर्हि अहं नयेत् अहं न नयेयं नयेयं नयेयम् अस्ति
नयेयं यदि सः दद्यात् तर्हि अहं नयेयम् इति भवति किन्तु सः न दत्तवान् अहमपि न नीतवान् अथवा नीतवती समीचीनं यदि सः दद्यात् तर्हि अहं तर्हि अहं नयेयं उत्तमं भगिनि अत्र विधिलिङ्गकारेण अपि
न न आयाति न तत्र महोदय
सत्यं सत्यं नास्ति अत्र
आयाति
केवलं तत्र न पृष्टवान् न दत्तवान् इति तत्र एव तत्र नकारः अस्ति तत्र यदि भवान् कृच्चेत् तर्हि सः दद्यात् तत्रापि नकारः नास्ति अत्रापि यदि सः दद्यात् तर्हि अहं नयेयं तत्रापि नकारः नास्ति अस्तु समीचीनं धन्यवादः भगिनि अस्तु अग्रे तत्र मधु महोदय अग्रे पठति वा
अहं ग्रामं न गतवान् अहं पितामहः न दृष्टवान्
पितामहं पितामहः
न दृष्टवान् यदि अहं ग्रामं
तत्र विधिलकार जानाति वा गच्छति इति गच्छे गच्छेयम् इति खलु
गच्छेयम् अस्तु
गच्छेयम् अस्ति महोदय
ग्रामं गच्छेयं गच्छेयं गच्छेयं
गच्छेयं तर्हि
गच्छेयं यदि अहं ग्रामं गच्छेयं तर्हि पितामहं
अहं पितामहम्
अहं पितामहं अद्रक्षेयं
पश्यति तत्र पश्यति इति अस्ति अतः तत्र तत्र रूपं किं भवति
पश्यति द्रक्षति अद्रक्षत्
न तत्र पश्यति गच्छति गच्छेयं पश्यति किं भवति
पश्यति
गच्छति इति स्थाने गच्छेयं पश्यति इति स्थाने
पश्यति भविष्यत्कालरूपं
भविष्यत् न इति इदानीं तत्र विधिलिङ्गकारः अस्ति महोदय लिङ्गकारः नास्ति लिङ्गकारः नास्ति इदानीं विधिलिङ्गकारः अस्ति अत्र
पश्येयुः पश्येयं
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 तत्र उत्तमपुरुषे पश्येयं तत्र प्रथमपुरुषे पश्येत्
पश्येत्
पश्येयम् इति भवति अतः पूर्णवाक्यं वदतु
यदि अहं ग्रामं गच्छेयं तर्हि अहं पितामहं पितामहं पश्येयम्
इति भवति उत्तमम् अस्तु अग्रे प्रिया भगिनि अग्रिमम्
अम्बा न दत्तवती अहं न खादितवान् यदि अम्बा दद्येत् अहं
दद्यात्
क्षम्यतां यदि अम्बा दद्यात् अहं खादेयं
तर्हि अहं खादेयं समीचीनं भगिनि तदेव अस्ति अस्तु अग्रे शुभदा भगिनि अग्रे
चतुर्थं वाक्यं रक्षकः आसीत् चोरः चौर्यं न कृतवान् आसीत् अस्धातोः रूपं किमस्ति स्यात् यदि रक्षकः न यदि रक्षकः न स्यात् अत्र न इति न भवति खलु अत्र यदि रक्षकः स्यात् तर्हि चोरः चौर्यः
तत्र न स्यात् एव
न स्यात् एव अस्तु किञ्चित् भ्रमः अस्तु यदि रक्षकः न स्यात् तर्हि चोरः चौर्यं कुर्यात्
तावदेव यतोहि तत्र यत्र तवतु रूपे नकारः अस्ति तत्र विधिलिङ्लकारे नकारः नास्ति यथा लृङ्लकारे तत्र नकारः नास्ति तथैव तत्र विधिलिङ्लकारे अपि तत्र नकारः नास्ति अतः पुनः वाक्यं भगिनि तत्र यदि रक्षकः
न स्यात् चोरः चौर्यं कुर्यात्
तर्हि चोरः चौर्यं कुर्यात् समीचीनं हा अस्तु अग्रे धन्यवादः अग्रे सुजाता भगिनी अग्रे
आं महोदय दण्डः दृढः आसीत् दण्डः भग्नः न अभवत् दण्डः यदि दण्डः दृढः स्यात्
न स्यात्
तर्हि दण्डः भग्नः अभविष्यत् भवेत्
भवेत् समीचीनम् अस्तु अग्रे वंशीसुधा भगिनी
आं महोदय शस्त्रं किल सः परिश्रमं न कृतवान् सः फलं न प्राप्तवान् यदि सः परिश्रमम् कुर्यात् यदि परिश्रमं यदि सः परिश्रमं कुर्यात् तर्हि सः फलं प्राप्येत् प्राप्नुयात् यात् भवति न पुनः वदामि महोदय यदि सः परिश्रमं कुर्यात् तर्हि सः फलं प्राप्नुयात्
प्राप्नुयात् इति समीचीनं भगिनि तदेव अस्ति
अस्तु
अग्रे शोभा भगिनि
आं महोदय तत्र वस्तुस्थितिः सः सम्यक् न श्रुतवान् सः तात्पर्यं न ज्ञातवान् यदि सः सम्यक् शृणुयात् तर्हि सः तात्पर्यम् अज्ञास्यत् किल
इदानीं तत्र लृङ्लकारः नास्ति केवलं विधिलिङ्लकारः खलु
ओ अस्तु अस्तु क्षम्यतां यदि सः सम्यक् शृणुयात् तर्हि सः तात्पर्यं ज्ञायेत्
न
जानीयात् क्षम्यतां महोदय
हा तत्र एतत् सर्वं जानीमः तत्र मनसि अस्ति केवलं तत्र प्रयोगसमये तत्र क्लेशः भवति तावदेव पुनः भगिनी पूर्णवाक्यं
तत्र अस्तु यदि सः सम्यक् शृणुयात् तर्हि सः तात्पर्यं जानीयात्
जानीयात् धन्यवादः भगिनि अग्रे वेदा भगिनि
सः पर्वतम् आरूढवान् कीर्तिं प्राप्तवान्
एषा एव वस्तुस्थितिः
सः पर्वतं
यदि यदि यदि
यदि सः पर्वतं न आरोहेत्
हा तत् तदेव भवति इति मन्ये
यदि सः पर्वतम् आरोहेत् तर्हि
आरोहेत्
यदि सः पर्वतं न आरोहेत् तर्हि सः कीर्तिं न प्राप्नुयात्
हा इति भवति उत्तमं भगिनि हा अस्तु अस्तु अग्रे तत्र नरेश महोदय
ते सम्यक् क्रीडितवन्तः जयं प्राप्तवन्तः तत् वस्तुस्थितिः अस्ति यदि ते सम्यक् न क्रीडेयुः क्रीडेयुः तर्हि ते जयं न प्राप्नुयेयुः
प्राप्नुयुः अथवा
प्राप्नुयुः
प्राप्नुयुः इति
यदि ते सम्यक् न क्रीडेयुः तर्हि ते जयं न प्राप्नुयुः
प्राप्नुयुः इति समीचीनम् अस्तु अग्रे तत्र उषा भगिनी अग्रे
आं महोदय अहं स्यूतं नीतवान् अहं कष्टं न अनुभूतवान् वस्तुस्थितिः अस्ति अपि च अहं स्यूतं यदि अहं स्यूतं न नयेयं तर्हि अहं कष्टम् अनुभवेयम् इति महोदय
हा अनुभूयत् अनुभवेयं हा समीचीनं भगिनि तदेव अस्ति उत्तमम् अस्तु अग्रे इदानीम् अग्रिम अभ्यासः तत्र शुभदा भगिनी आरम्भं करोति वा अग्रिम अभ्यासः आं
महोदय लृङ्थे क्तवतु प्रत्ययान्तेन रूपेण सह स्यात् इति इत्यादीनि उपयुज्य वाक्यानि रचयत उदाहरणार्थं भिक्षुकः न याचितवान् धनिकः न दत्तवान् यदि भिक्षुकः याचितवान् स्यात् यदि भिक्षुकः याचितवान् स्यात् तर्हि धनिकः दत्तवान् स्यात्
इति इदानीम् अतः तत्र किम् आवश्यकम् आस्धातोः विधिलिङ्गकारः आवश्यकं तत्र स्यात् इति अतः तत्र आरम्भे तत्र स्यात् आस्धातोः विधिलिङ्गकारस्य रटनं तत्र वदामः एकवारं तत्र किमस्ति स्यात् स्यातां स्युः
स्याः स्यातं स्यात् स्यां स्याव स्याम
स्याम इति समीचीनम् एतत् मनसि भवेत् स्यात् स्यातां स्युः स्याः स्यातं स्यात् स्यां स्याव स्याम इति अस्तु इदानीं करोतु भगिनि
निद्रा न आगता सः निद्रां न कृतवान् यदि यदि निद्रा
आगता
न आगता यदि निद्रा आगता स्यात् सः निद्रां कृतवान् स्यात् तर्हि सः निद्रां कृतवान् स्यात्
समीचीनं तत्र उभयोर् अपि तत्र नकारः दृश्यते अतः इदानीं तत्र विनिलिङ्गकार स्यात् इति यत्र वदामः तत्र नकारस्य लोपः तस्य नकारः नास्ति इदानीं समीचीनम् अस्तु अग्रे प्रिया भगिनि
वाक्यं न स्फुरितं सः उत्तरं न लिखितवान् यदि वाक्यं स्फुरितं स्यात् सः उत्तरं लिखितवान् स्यात्
हा तर्हि सः उत्तरं लिखितवान् स्यात् समीचीनं हा समीचीनं अस्तु अग्रे उषा भगिनि
आं महोदय जलम् आगतं सा स्नानं कृतवती यदि जलम् आगतं स्या न आगतं स्यात् तर्हि सा स्नानं न कृतवती स्यात्
इति समीचीनं तावदेव अस्ति उत्तमम् अस्तु अग्रे वंशी सुधा भगिनी
महोदय
आह्वानं आगतमासीत्
पञ्चमं
वा चतुर्थः
आह्वानम् आसीत् वयं गतवन्तः यदि आह्वानं न स्यात्
आगतं न स्यात् आगतं न स्यात्
ओ मम
आगतम् इति विशेषणमस्ति आह्वानमिति
वाक्यं किमस्ति महोदय आह्वानम् आसीत् वयं गतवन्तः
भिन्नः न तदेव
आह्वानम् आगतम् आसीत्
आह्वानम् आगतम् आसीत् अपि वयं गतवन्तः एषा एव स्थितिः वस्तुस्थितिः यदि अन्यत् किमपि अभवत् इति चिन्तनं खलु अतः आह्वानं
आगतम् आह्वानं न आगतं किमर्थं योजनीयं महोदय
आगतम् आह्वानम् आगतम् इति आह्वानं केवलम् आह्वानम् अस्ति इति नास्ति खलु आह्वानम् आगतम्
यदि समीचीनं परन्तु आह्वानं न स्यात् अपि समीचीनं किल
केवलम् आह्वानम् अस्ति किन्तु ते न प्रेषितवन्तः तस्मिन् समये किं भवति कुत्रापि तत्र ज्ञानं भवेत् खलु
अस्तु तर्हि
आह्वानम् आगतं नाम भवत्याः गृहे इदानीम् आह्वानम् अस्ति इति खलु
समीचीनं तर्हि वाक्यमस्ति यदि आह्वानं न आगतं स्यात् तर्हि वयं न गतवन्तः स्युः न तत्र विधिर्लिङ्ग् विधिर्लिङ्ग् स्युः गतवन्तः
न किन्तु प्रथम उत्तमपुरुषे अस्ति खलु
वयमिति अस्ति यदि आह्वानम् आगतं न स्यात् तर्हि वयं न गतवन्तः स्याम
समीचीनं समीचीनं तदेव अस्तु अग्रे सुजाता भगिनी
आं महोदय सः मां न ताडितवान् अहं तं न ताडितवान् यदि सः मां
ताडितवान्
स्यात्
तर्हि
अहं तं न तं ताडितवान् स्यात्
उत्तमम् अहम् इति अस्ति तदेव समीचीनं पुनः एकवारं
सः मां
यदि
सः मां ताडितवान् स्यात् तर्हि अहं तं ताडि
ताडितवान् स्याम् इति समीचीनं तदेव अस्ति उत्तमम् अग्रे वेदा भगिनि
समयः न आसीत् अहं न आगतवान् यदि समयः समयः स्यात् अहं स्यात्
तर्हि सत्यं यदि समयः स्यात्
तर्हि अहम् आगतवान् स्याम्
इति समीचीनम् अथवा आगतवती स्यां समीचीनम् अस्तु अग्रे नरेश महोदय
देवः अनुगृहीतवान् ते कार्यं साधितवन्तः यदि देवः न अनुगृहीतवान्
यदि देवः न अनुगृहीतवान् स्यात्
तर्हि ते कार्यं न साधितवन्तः स्युः
स्युः स्युः समीचीनं तदेव अस्ति हा अस्तु अग्रे शोभा भगिनि
आं महोदय विद्युत् गता अहं कार्यं न समापितवान् यदि विद्युत् गता न गता स्यात् अहं कार्यं
तर्हि
यदि विद्युत् गता न गता स्यात् तर्हि अहं कार्यं समापितवान् स्याम्
स्याम् इति समीचीनं भगिनि तदेव अस्ति हा अस्तु अग्रे प्रिया भगिनी
पत्नी मातृगृहं गतवती अहम् अपाहारमन्दिरं गतवान्
उपाहारमन्दिरम्
उपाहार यदि पत्नी मातृगृहं गतवती न स्यात् तर्हि अहम् उपाहारमन्दिरं गतवान् न स्यात् न स्यां
न स्याम् इति समीचीनम् अस्तु सुभदा भगिनी अग्रे
सः मां गृहीतवान् अहं न पतितवान् यदि सः मां न गृहीतवान् स्यात् तर्हि अहं पतितवान् स्याम्
स्याम् इति तावदेव अस्तु अस्तु तर्हि अतः तत्र लृङ्लकारस्य अर्थः इदानीं सम्यक्तया मनसि स्थितः इति मन्ये खलु
उत्तमम् अभ्यासः उत्तमः अभ्यासः महोदय
अस्तु भगिनि तत्र एतत् सर्वं तत्र जनार्दन हेगडे महोदयस्य शैली भगिनि एतदेव अस्ति खलु तत्र सारल्यरीत्या सरलरीत्या तत्र सर्वं तत्र पाठिष्यति सः लेखनशैली तादृशी अस्ति अतः तत्र सुलभतया वयम् अवगन्तुं शक्नुमः अतः तत्र अग्रिमवर्गे तत्र गीतासोपाने साक्षात् यः पाठः अस्ति तं पठामः अस्तु हा इदानीं तत्र तस्य आरम्भं मास्तु एतद् सम्यक् अस्ति इति कृत्वा तत्र अभ्यासं ये अभ्यासाः अत्र सन्ति तत्र पुनः तत्र गृहपाठरूपेण पुनः एकवारं सर्वं तत्र पूरयतु यतोहि तत्र मनसि दृढतया स्थितः भवति अर्थः अतः तत्र अन्यः नूतनविषयः नास्ति अतः तत्र अत्रैव विरमामः वा अद्य समीचीनं वा
अस्तु
तत्र चर्चयामः किन्तु तत्र ध्वनिमुद्रणम् अत्रैव तत्र स्थगयामः तत्र अस्तु तत्र प्रिया भगिनी तत्र शान्तिमन्त्रं वदति वा
भगिनी अवश्यं महोदय सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः शान्तिः शान्तिः
धन्यवादः